तं देवदेवस्य महादेवस्य पावनम् अपारं परमोदारं चतुर्वर्गस्य साधनम् गौरी विनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकं शिवं ध्यात्वा दशभुजं शिवरक्षां पठे नरः। गङ्गाधरः शिरः पातु भालमर्धेन्दुशेखरः नयने मदनध्वंसी कर्णो सर्पविभूषणः घ्राणं पातु पुरारातिर्मुखं पातु जगत्पतिः जुहां वागीश्वरः पातु कन्धरांशितिकन्धरः। श्रीकण्ठः पातु मे कण्ठम् स्कन्धौ विश्वधुरन्धरः भुजौ भूभारसंहर्ता करौ पातु पिनाकधृक् हृदयं शङ्करः पातु जठरं गिरिजापति नाभिं मृत्युञ्जयः पातु कटिव्याघ्राजिनाम्बरः। सक्तिनी पातु दीनार्थ शरणागतवत्सलः ऊरुः महेश्वरः पातु जानुनी जगदीश्वरः जङ्घे पातु जगत्कर्ता गुल्फो पातु गणाधिपः चरणौ करुणा सिन्धु सर्वाङ्गानि सदा शिवः। एतां शिवबलोपेतां रक्षां यः सुकृतिं पठे स भुक्त्वा सकलान् कामान् शिवसायुज्यमाप्नुयात्। ग्रहभूत पिशाचाद्यास्त्रैलोक्ये विचरन्ति ये दूरादाशु पलायन्ते शिवनामाभिरक्षणा। अभयङ्करनामेदं कवचं पार्वतीपते भक्त्या बिभर्ति यः कण्ठे तस्य वश्यं जगत्त्रयम्। इमां नारायण स्वप्ने शिवरक्षां यथा दिश प्रातरुत्थाय योगीन्द्रो याज्ञवल्क्यस्तथा लिख याज्ञवल्क्यस्तथा।